Nanamdva Ganapati Gumhava Mahe Kavim Kavinam Upamashravastamam Jeshtharajam Brahmanam Brahmanaspata Anashrinvan Nodibhissirasadhanam Prano Devi Saraswati Vajibhir Vajinivati Dhinama Vitrayavatu Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Harihi Om Sahana Bhavatu Sahanau Bhunaktu Sahaviryam Karavavahai Tejasvinavadhetamastu Mavidvishavahai Om Shanti Shanti Shantihi Atha Purusho Havai Narayana Kamayata Prajasrije Yeti Narayana Prana Jayate Manas Sarvendriyani Cha Khambayur Jyotirapa Prithivi Vishvasya Dharini Narayanat Brahma Jayate Narayanat Rudra Jayate Narayanat Indra Jayate Narayanat Prajapataya Prajayante Narayanat Dvadashaditya Rudra Vasavas Sarvani Chachanda Gumsi Narayanat Deva Samutpadyante Narayane Pravartante Narayane Praliyante Om Atha Nitya Narayanaha Brahma Narayanaha Shivascha Narayanaha Shakrascha Narayanaha Dhyava Prithivyaucha Narayanaha Kalascha Narayanaha Disascha Narayanaha Urdhvascha Narayanaha Adhascha Narayanaha Antarbahischa Narayanaha Narayana Evedagum Sarvam Yadbhutam Yaccha Bhavyam Nishkalo Niranjano Nirvikalpo Nirakhyata Shuddho Deva Eko Narayanaha Nadvidiyo Astikaschita Ya Evam Veda Savishnureva Bhavati Savishnureva Bhavati Om Ityagre Vyaharet Nama iti paschat Narayana yetyuparishtat Om ityi kaksharam Nama iti dve akshare Narayana yeti panchaksharani Yetadvai narayanasya akshaksharam padam Yohavai Narayanasya Ashtaksharam Padamadhyeti Anapabhruvassarvamayureti Vindate Prajapatyagumrayasposhangaupatyam Tatomritatvamashnute Tatomritatvamashnuta iti Ya evam veda Pratyaganandam Brahma Purusham Pranavaswarupam Akara Ukara Makara Iti Tane Kathasama Bharatta Deta Domiti यमुक्त्वा मुच्यते योगी जन्म संसार बन्धनात्। ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठ भुवन लोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मात्तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकम् नारायणम् कारणरूपमकार परब्रह्म एतदथर्वशिरो योधीते प्रातरधियानो रात्रिकृतम् पापम् नाशयति सायमधियानो दिवसकृतम् पापम् नाशयति माद्यम् दिनमादित्याभिमुखाधियान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ यश्छन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय मेधा देवी घुषमाणान आगाद्विश्वाचि भद्रा सुमनस्यमाणा त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वधेम विदधे सुवीरा त्वया जुष्टर्षिर्भवति देवि त्वया ब्रह्मा गतश्रीहृदत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधा महिन्द्रो दधातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना उभावा दत्ताम् पुष्करस्रजा अप्सरासु चया मेधा गन्धर्वेषु चयन्मनः दैवी मेधा सरस्वती सामा मेधा सुरभिर्जुषतागस्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगते जगम्या ऊर्जस्वती पयसा पिण्वमाना सामाम् मेधा सुप्रतीकाजुषन्ता मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजो ददातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियम् ददातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो व्राजो ददातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु samasta lokah sukhino bhavantu. Om shanti shanti shanti.